त्वामिद्धि भवामहे सातामाजस्य गारवाः त्वाम् रुद्रेष्विन् रहत्वाजिन्नरत्वाम् काष्ठा सर्वदा सत्त्वम् नश्चित्रवज्रहस्त्वधृष्णया महस्तबालो अद्रिवः गावस्वम् नच्छविन्दसङ्गीरसत्तावाजम् न जिज्ञुषे यः सत्राः विचर्षनिरिन्द्रन्तम् होमहे भयम् सहस्रमुष्कतुभिर्णम् न सत्ताते भवाः समत्सो नो वृधे बाधाचेतनान् वृषभेव मञ्जुनाघृषौ नीलरीजीषम अस्माकम् भोज्य पितामाः धने तनोष्वप्सु सूर्ये इन्द्रज्येष्ठम् नाभरम् गोजिष्ठम् बपूरिस्रवाः येने मे चित्रवज्रस्तरोदसी ओभे सूसि प्राप्ताः त्वामुग्रमरासे चर्षणी सहम् राजन् देवेषु भूमहे विश्वासुरा विधुरा विद्धनाव सौमित्रान् सुषान् कृधि यजिनीन्द्रनाभूषेष्वाम् च कृष्टिषु यद्वापम् चक्षिजीनाम् युम्नमाभरसत्रावस्वांस्या यद्वा दृक्षौ माघवम् दृष्ट्या वाचने यत्पूर्वकच्छविष्ट्यम् अस्मभ्यम् तद्रीरीहिरम् दृढाह्ये मित्रान् पृत्सु दुर्वमे इन्द्रत्रधातु शरणम् त्रिवरोधम् स्वस्तिमत् छद्दिर्गच्छ मगमद्भश्च मह्यम् च यापयादिद्युमेभ्यः एकौ यदा मनसा शत्रु माधभुराभिप्रघ्नन्ति धृष्ट्यास्मानो मघवन्निन्द्रगिर्वनस्तनूपान्तामो भव अधरास्मानो वृधे भवेन्द्र नायम वाजुधि यदन्तरिक्षे पदलयम् जिवर्णिनो निद्यवस्तिग्ममूर्धानः यत्र सूरासस्तन्वोऽवितम्बते प्रिया शर्म पितॄणाम् अथस्मायच्छतन्वे एतने च चित्तम् यावयद्वेषाः यदिन्द्रदर्गे अर्वादश्चोदयासे महाधने असमने अध्वनिवृजिने तस्येनाव श्रवस्य सिन्धोरिव प्रवणासुजायतो यदि क्लोशमनुष्वणि आयेव यो न वर्वे दत्यामीषि गृहीता बाह्मोर्गवि